अथ सरस्वती स्तोत्रम्। बृहस्पतिरुवाच, सरस्वतीं नमस्यामि चेतनानां हृदि स्थितां कंठस्थां पद्मयोनेस्तु हिमाकरप्रियां सदा, मतिदां वरदां शुद्धां वीणाहस्तवरप्रदां, ऐं ऐं मंत्रप्रियां ह्रीं ह्रां कुमतिध्वंसकारिणीं, सुप्रकाशां निरालंबां अज्ञानतिमिरापहां, शुक्लां मोक्षप्रदां रम्यां शुभांगीं शोभनप्रदां, पद्मसंस्थां कुंडलिनीं शुक्लवर्णां मनोरमां, आदित्यमंडले लीनां प्रणमामि हरिप्रियां। इति मासं स्तुतानेन वागीशेन महात्मना, आत्मानं दर्शयामास शरदिन्दु समप्रभाम्। सरस्वत्युवाच, वरं वृणीष्व भद्रं ते यस्ते मनसि वर्तते। बृहस्पतिरुवाच, वरदा यदि मे देवि सम्यक् ज्ञानं प्रयच्छ मे। सरस्वत्युवाच, इदं ते निर्मलं ज्ञानं अज्ञानतिमिरापहं, स्तोत्रेणानेन मां स्तौति सम्यग् वेदविदां वर, लभ्यते परमं ज्ञानं मम तुल्यपराक्रमं, त्रिसंध्यं यः पठेन्नित्यं यस्त्विदं जपते सदा, तेषां कंठे सदा वासं करिष्यामि न संशयः। इति पद्मपुराणे बृहस्पति प्रोक्तं सरस्वती स्तोत्रम्।